मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये यततामपि सिद्धानां कश्चिन् मां वेति तत्त्वतः। भूमिरापो नलो वायो खं मनो बुद्धिरेव च अहंकार तियं मे भिन्ना प्रकृतिरष्टधा। अपरेयम् इतस्त्वन्या प्रकृतिं विद्धि मे परा जीवभूता महाबाहो येदं धारते जगत्। मत्ता परतरं नान्या किञ्चिदस्ति धनञ्जया मयि सर्वं इदं प्रोतं सूत्रे मणिगणायिव। दैवी एषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते। न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमा मायया परितज्ञाना आसुरं भावमाश्रिता। चतुर्विधा भजन्ते मां जना सुकृतिनोऽर्जुना आर्तुजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभा। बहुनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभा। नाहं प्रकाश सर्वस्य योगमाया समावृता मूढोऽयं नाभिजानाति लोको मामजमव्ययम्। वेदा समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन। इच्छा द्वेष समुत्थेन द्वन्द्वमोहेन भारता सर्वभूतानि सम्मोहं सर्गे यान्ति परं तपा। येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता। काले च मामेव स्मरन् मुक्त्वा कलेवरा यः प्रयाति शमद्भावं याति नास्त्यत्र संशया यं यं वापि स्मरन् भावं त्यज्यत्यन्ते कलेवरं तं तमेवेति कौन्तेया सदा तद्भावभाविता तस्मात् सर्वेषु कालेषु मामनुस्मरयुद्ध च मय्यर्पितमनो बुद्धिः मामेवेष संशया अनन्या चेता सततम् यो मां स्मरति नित्यसा तस्याहं सुलभपार्थः नित्ययोक्तस्य योगिना मामुपेत्य पुनर्जन्मा दुःखालयम् अशाश्वतम् नाप्नुवन्ति महात्माना संसिद्धिं परमां गता आ ब्रह्मभुवनालोका पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेया पुनर्जन्मा न विद्यते वेदेषु यज्ञेषु तपःषु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपेति चाद्यम्।